अयि संस्कृत सेवा परायणाः श्रोतारः संस्कृत साप्ताहिक्याः अंकेस्मिन् भवतां समेषां हार्दिकं स्वागतम् अभिनन्दनं च। आकाशवाण्याः संस्कृत श्रव्य पत्रिकायाः नूतनमंकमेतम् आदाय उपस्थितोऽस्मि अहं दिव्यानन्द झाः। सुदीयः श्रोतारः, जानीमो वयं यत् सुभाषितानि भवन्ति मनुजेभ्यः अतितरां प्रेरणा प्रदानि, तर्हि शृणुमस्तावत् सुभाषितमेकम्। तच्च सुमधुरेण स्वरेण प्रस्तौति अस्माकं सहयोगिनी साधना शर्मा।
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति, नायं लोकोऽस्ति न परो न सुखं संशयात्मनः। अर्थात् अज्ञानी, श्रद्धा रहित और संशय युक्त पुरुष नष्ट हो जाता है। संशय पुरुष के लिए न इस लोक में और न ही परलोक में सुख है।
प्रिय श्रोतारः, संप्रति सरामः प्रसंग प्रभागं प्रति, यत्र अद्य लयताल पूर्वकं विंध्येश्वरी स्तोत्रं प्रस्तौति मम सहयोगिनी रिंकू जोशी।
निशुम्भ शुम्भ मर्दिनी प्रचण्ड मुण्ड खण्डिनी, वनेरणे प्रकाशिनी भजामि विन्ध्यवासिनी, त्रिशूल मुण्ड धारिणी धराविघात हारिणी, गृहे गृहे निवासिनी भजामि विन्ध्यवासिनी, दरिद्र दुःख हारिणी सदा विभूतिकारिणी, वियोग शोक हारिणी भजामि विन्ध्यवासिनी, लसत्सु लाल लोचनम लता सदंबर प्रदान, कपाल शूल धारिणी भजामि विन्ध्यवासिनी, करौ मुदा गदाधरा शिवा शिवं प्रदायिनी, वरावराननं शुभां भजामि विन्ध्यवासिनी, ऋषीन्द्र जामिनि प्रदं त्रिधा स्वरूप धारिणी, जले थले निवासिनी भजामि विन्ध्यवासिनी, विशिष्ट सृष्टिकारिणी विशाल रूप धारिणी, महोदरे विलासिनी भजामि विन्ध्यवासिनी, पुरन्दरादि सेवितां मुरादि वंश खण्डितां, विशुद्ध बुद्धिकारिणीं भजामि विन्ध्यवासिनी, भजामि विन्ध्यवासिनी, भजामि विन्ध्यवासिनी।
अहो भावभरितं स्तवनम्। अयि जागरूकाः श्रोतारः, जागतिक घटनाः ज्ञातुं सम्प्रति चलामः वार्ता प्रभागं प्रति। अद्य साप्ताहिक वैश्विक वार्ताः प्रस्तौति निधि झा।
प्रधानमन्त्री नरेन्द्र मोदी तमिलनाडु राज्यस्य कोयम्बतूर नगरे नवकोटि कृषकानां कृते 18,000 कोटि रूप्यकाणां 21तमं प्रधानमन्त्री कृषक सम्मानन धनराशि खण्डस्य विमोचनं कृतवान्। जेडीयू इति संयुक्त जनता दलस्य प्रमुखः श्रीनीतीश कुमारः दशमवारं बिहारस्य मुख्यमन्त्रित्वेन शपथं ग्रहीष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः छत्तीसगढ़ तेलंगाना आंध्रप्रदेश राज्यानां त्रिदिवसीय यात्रायां वर्तते। भारतस्य अन्ताराष्ट्रिय चलचित्र महोत्सवस्य IFFI 2025 इत्यस्य 55वें संस्करणं गोवा नगरे आरभ्यते। विदेशमंत्री डॉ एस जयशंकरः सबलं प्रतिपादितवान् यत् आतंकवाद विरुद्धं स्वनागरिकाणां रक्षणं भारतस्य सिद्धः अधिकारः अस्ति इति। बिहार राज्य एनडीए घटक दलस्य नवनिर्वाचित विधायकानां संगोष्ठी पटना नगरे समभवत। सूचना प्रसारण मंत्रालयेन लालकिला इति रक्तदुर्ग कार विस्फोटस्य घटनायाः सम्बद्धानां संवेदनशील सामग्रीणां दूरप्रसारणस्य विषये सर्वेभ्यः दूरदर्शन माध्यमेभ्यः परामर्शः प्रकाशितः। विद्युदीय तथा सूचना प्रौद्योगिकी मंत्री श्री अश्विनी वैष्णव नवदिल्ल्यां विद्युदीय घटक निर्माण योजनायाः कृते द्वितीय मुद्राखण्डस्य घोषणां कृतवान्। बांग्लादेशस्य पदच्युत प्रधानमंत्री शेख हसीना तथा पूर्व गृहमंत्री असदुज्जमा खान कमाल इत्यनयोः द्वयोः कृते तद्देशस्य अन्ताराष्ट्रिय आपराधिक न्यायालयेन मानवता विरुद्धम् अपराधानां कृते मृत्युदण्डः श्रावितः। धन्यवादः।
अयि मान्याः श्रोतारः, अद्य ज्ञान विज्ञानाख्ये साक्षात्कार प्रभागे अस्माभिः साकं संवादाय उपस्थिताः विद्यन्ते सम्पूर्णानन्द संस्कृत विश्वविद्यालये सहायकाचार्याः डॉक्टर रविशंकर पाण्डेय महाभागाः। सम्प्रति अस्मदीय सहयोगिना पुनीत त्रिपाठिना साधितेन संवाद माध्यमेन जानीमः भारतीय ज्ञान प्रवाहं प्रति डॉक्टर पाण्डेय महाभागानां विचारान्।
नमो नमः। अद्य आकाशवाण्यां संस्कृत साप्ताहिक्याः ज्ञान विज्ञान प्रभागे सम्पूर्णानन्द संस्कृत विश्वविद्यालयस्य सहायकाचार्याणां डॉक्टर रविशंकर पाण्डेय महोदयानां स्वागतं करोमि अहं पुनीत त्रिपाठी। महोदय, तावत् प्रथमः प्रश्नः यत् अद्यतनकाले संस्कृतस्य अध्ययनं कथम् उपयोगी भवति।
नमो नमः। अत्र भवत्याः अपि स्वागतमस्ति। निश्चयेन संस्कृतभाषा इदानीमपि महती उपयोगिनी वर्तते। संस्कृतभाषा केवल भाषा नास्ति, संस्कृतभाषा स्वतन्त्ररूपेण विषयः अस्ति। विषयत्वेन इयं भाषा विशेष उपयोगिनी वर्तते। यथा गणितस्य यदि विस्तृतं ज्ञानं कर्तुम् अहं वाञ्छामि तदा संस्कृतस्य उपयोगिता अस्ति। वैदिकगणितस्य ज्ञानं संस्कृतं विना भवितुं नार्हति। स्वास्थ्यक्षेत्रे अपि एकः उत्तमः वैद्यः तदेव भवति यदा संस्कृतं जानाति। अतः स्वास्थ्यक्षेत्रे अपि संस्कृतस्य उपयोगिता वर्तते। योगः वैश्विकः जातः। योगस्य मूलभूतं ज्ञानं संस्कृते निहितं वर्तते। अस्माकं सनातनसंस्काराः वर्तन्ते। तेषां सर्वेषां सनातनसंस्काराणां सम्पादनाय संस्कृतस्य ज्ञानम् आवश्यकमस्ति। अनुसन्धानक्षेत्रेऽपि संस्कृतस्य ज्ञानम् आवश्यकमस्ति। अहं पश्यामि बहुषु IIT क्षेत्रे वैज्ञानिकाः वर्तन्ते, ते इदानीं संस्कृतं पठन्ति। ते जानन्ति यत् विदुनीतिम् आश्रित्य यदि अनुसन्धानं भवति तदा नूतनता आगमिष्यति। गणितम् आश्रित्य अनुसन्धानं भवति तदा नूतनता आगमिष्यति। भाषा विज्ञान क्षेत्रे अपि संस्कृतस्य ज्ञानस्य आवश्यकता अस्ति। एवं कृत्वा बहुषु क्षेत्रेषु संस्कृतस्य ज्ञानम् आवश्यकम् अस्ति।
मान्यवर, संस्कृताध्ययनेन छात्राणां कृते काः काः वृत्त्यवसराः सम्भवन्ति, कृपया प्रतिपादयन्तु।
छात्राणां कृते अपि इदानीं जीविकाक्षेत्रे विशेषरूपेण विशेषविस्तारः दृश्यते। संस्कृतछात्राणां शिक्षा मन्दिरेषु प्रवेशः तु अस्त्येव। तत्र विश्वविद्यालयेषु, महाविद्यालयेषु, प्राथमिकविद्यालयेषु ते अध्यापकाः भवन्ति इति वृत्तेः महत्त्वपूर्णः मार्गः अस्ति। तथा च प्रवचनक्षेत्रे अपि संस्कृतछात्राणां कृते अवसरः वर्तते। प्रायः भारते एव नैव, समग्रे विश्वे इदानीं नूतनानि मन्दिराणि निर्मीयन्ते। तत्र संस्कृतस्य एव छात्राः अर्चकाः भवन्ति। अयं तु महान् अवसरः अस्ति छात्राणां कृते प्रायः गृहेषु गृहेषु अपि संस्कृतज्ञाः कर्मकाण्डं कुर्वन्ति प्रशासनिकसेवाक्षेत्रे अपि संस्कृतज्ञानां कृते इदानीम् अवसरः अस्ति पत्रपत्रिकालेखने अपि संस्कृतज्ञानां पूर्वमपि अवसरः आसीत् इदानीमपि तथैव अवसरः वर्तते पत्रिकाक्षेत्रे अपि अवसरः अस्ति अनुवादकरूपेणापि अवसरः दृश्यते कोशनिर्माणे अपि संस्कृतज्ञानां महती भूमिका अस्ति यदि कश्चित् संस्कृत अस्ति सः राष्ट्रसेवां कर्तुम् इच्छति तदा सेना मध्ये धर्मगुरु पदे अपि तेषां नियुक्तिः भवति एवम् आयुर्वेदस्य क्षेत्रे तु विशेष तेषाम् आवश्यकता अस्ति अतः स्वास्थ्यक्षेत्रे अपि संस्कृतज्ञानां योगक्षेत्रे अपि संस्कृतज्ञानां विशेष अवसरः वर्तते
मान्यमहोदय विदेशेषु संस्कृताध्ययनाध्यापनस्य स्थितिः का अस्ति भारतीय विद्यार्थिभ्यः तत्र कथम् अवसराः लभ्यन्ते
अत्र प्रश्नद्वयमस्ति एका प्रश्नः अस्ति विदेशे संस्कृतस्य का स्थितिः वस्तुतः विदेशेषु संस्कृतस्य अतीव उत्तमा स्थितिः वर्तते बहुषु देशेषु विश्वविद्यालयाः आधुनिकाः वर्तन्ते तेषु आधुनिकविश्वविद्यालयेषु संस्कृतविभागः स्वतन्त्ररूपेण अस्ति तत्र अध्यापकाः वर्तन्ते ते पाठयन्ति अनुसन्धानकार्याणि अपि भवन्ति भाषाविज्ञानक्षेत्रे तु विस्तृतं कार्यं भवति विशेषरूपेण पाणिनेः व्याकरणम् आश्रित्य विशेषरूपेण अध्ययनम् अध्यापनं भवति द्वितीयः प्रश्नः अस्ति यत् संस्कृतछात्राणां कृते विदेशे कीदृशः अवसरः तत्र बहवः अवसराः विदेशे अपि वर्तन्ते यथा विदेशे आक्स्फोर्ड् विश्वविद्यालये संस्कृतविभागः स्वास् विश्वविद्यालये लण्डन् मध्ये संस्कृतविभागः अस्ति जर्मन् देशे अपि हम्बर्ग् विश्वविद्यालयः तत्रापि संस्कृतविभागः इटली मध्ये पोलोगना विश्वविद्यालयः रोम विश्वविद्यालयः तथा कैम्ब्रिज् एकः विश्वविद्यालयः अस्ति पोलैंड मध्ये वसाव विश्वविद्यालय एवं बहुषु विश्वविद्यालयेषु स्वतन्त्र संस्कृत विभागः अस्ति तत्र अध्यापनस्य कृते अपि अवसरः अस्ति विदेशे प्रायः हिन्दू मन्दिराणि वर्तन्ते तत्र अर्चकरूपेण बहवः छात्राः कार्यं कुर्वन्ति एवम् अस्माकं विभागस्य एकः छात्रः वैदेशिकः एव अस्ति विशेषरूपेण कनाडा इति मध्ये ब्राम्प्टन् त्रिवेणी मन्दिरम् अस्ति तस्य मन्दिरस्य प्रधान अर्चकः प्रवचनमपि सः करोति एवं कृत्वा संस्कृतस्य छात्राणां विदेशे विशेष अवसराः वर्तन्ते
अस्तु महोदयः भवता साक्षात्काराय प्रकल्पिताय निजसमयाय भवते धन्यता वचांसि समर्पयाम्यहम् पुनीत त्रिपाठी आकाशवाणी पक्षतः नमो नमः धन्यवादः
आकाशवाणी अपि संस्कृतं प्रति बहु चिन्तयति अतः अहम् पुनः आकाशवाण्याः कृते धन्यवादं समर्पयामि नमो नमः
आचार्याणां डॉक्टर रविशंकर पांडेय महाभागानां वचनानि श्रुत्वा जाताः वयं नितरां प्रेरिताः अयि संस्कृत प्रेमिणः आगच्छन्तु संस्कृत दिग्दर्शिनी प्रभागे यत्र विश्वस्मिन् अपि विश्वे संस्कृत संवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति अस्मदीय सहयोगी गणेश हेगडे
राष्ट्रपति द्रौपदी मुर्मू राष्ट्रपति भवने नवंबर मासस्य ऊनविंशति दिनांके दक्षिणाम्नाय श्रृंगेरी शारदा पीठस्य जगद्गुरु शंकराचार्य श्री विधुशेखर भारती सन्निधानस्य स्वागतं कृतवती राष्ट्रपतिना महास्वामिभिः सह संवादः कृतः अथ तैः शुभकामनाः च प्राप्ताः केन्द्रीय संस्कृत विश्वविद्यालयस्य अथ श्री लालबहदुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयस्य तत्त्वावधाने श्री लालबहदुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालये त्रयोविंशति दिनांके भानुवासरे गुरु नमस्या इति संस्कृत संस्कृति सम्बद्धः कार्यक्रमः भविष्यति अस्मिन् अवसरे कर्णाटकस्य श्रृंगेरी जगद्गुरु शंकराचार्याः श्री विधुशेखर भारती महास्वामिनः सभायाः शोभां वर्धयिष्यन्ति। अस्मिन् अवसरे केन्द्रीय संस्कृत विश्वविद्यालयस्य कुलपतिः प्रोफेसर श्रीनिवास वरखेडी महाभागाः अथ श्री लालबहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयस्य कुलपतिः प्रोफेसर मुरली मनोहर पाठकवर्यः अथ अन्ये च संस्कृतानुरागिणः उपस्थिताः भविष्यन्ति। केन्द्रीय संस्कृत विश्वविद्यालयस्य मुक्त स्वाध्याय पीठ द्वारा दक्षिणायन सत्र सम्बद्ध पाठ्यक्रमाणां सत्रांत परीक्षाः आगामी जनवरी मासे आयोजयिष्यन्ते।
अयि रसिकाः श्रोतारः, जानीमो वयं यत् बालाः कथासु गीतेषु च भवन्ति कियन्तः रुचिमन्तः। तर्हि आगच्छन्तु एहि शृणुमः बालमनोवल्लरी प्रभागे रुचिकरां कथामेकाम्। ताञ्च रुचिकरशैल्या प्रस्तुति सुषमा कुमारी।
बालाः, अद्य वयं बाल मनोवल्लर्यां एकां कथां शृणुमः। कथायाः शीर्षकः विश्वबन्धुत्वम्। उत्सवे, व्यसने, दुर्भिक्षे, राष्ट्रविप्लवे, दैनन्दिन व्यवहारे च यः सहायतां करोति सः बन्धुः भवति। यदि विश्वे सर्वत्र एतादृशः भावः भवेत् तदा विश्वबन्धुत्वं सम्भवति। परन्तु अधुना निखिले संसारे कलहस्य अशान्तेः च वातावरणमस्ति। मानवाः परस्परं न विश्वसन्ति। ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति। अपि च समर्थाः देशाः असमर्थान् देशान् प्रति उपेक्षाभावं प्रदर्शयन्ति। तेषाम् उपरि स्वकीयं प्रभुत्वं स्थापयन्ति। संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते। देशानां विकासः अपि अवरुद्धः भवति। अतः विश्वस्य कल्याणाय एतादृशी भावना भवेत्। अयं निजः परो वेति गणना लघुचेतसाम्, उदारचरितानां तु वसुधैव कुटुम्बकम्।
श्रुतः अस्माभिः ज्ञानवर्धिनी कथा। मान्याः श्रोतारः, अग्रिमः प्रभागोऽस्ति एकं भारतं श्रेष्ठं भारतम् इति, यत्र मम सहयोगी ललितमोहन तिवारी प्रस्तौति राष्ट्रियैक्यद्योतकं संस्कृत हिन्दी पंजाबी भाषात्रय संगमम्।
प्रथमं वाक्यमस्ति, मिल्खा सिंह भारतस्य विख्यातः धावकः, फ्लाइंग सिख इति नाम्ना प्रसिद्धः आसीत्। मिल्खा सिंह भारत के प्रसिद्ध धावक और फ्लाइंग सिख के नाम से जाने जाते थे। पंजाबी भाषा में, मिल्खा सिंह भारत दे मशहूर तावक नेते, ऊना नु फ्लाइंग सिख दे नाम नाल जानिया जांदा है। द्वितीयम वाक्यम अस्ति, तेन एशियाई क्रीड़ासु कॉमनवेल्थ क्रीड़ासु च स्वर्ण पदकानी प्राप्तानी। उन्होंने एशियाई खेलों और कॉमनवेल्थ खेलों में स्वर्ण पदक जीते थे। पंजाबी भाषा में, उन्होंने एशियाई ते कॉमनवेल्थ खेलों च स्वर्ण पदक जीते ने। तृतीयम वाक्यम अस्ति, तस्य जीवनम युवभ्य प्रेरणा स्वरूपम परिश्रमस्य अद्भुतम उदाहरणम च अस्ति। उनका जीवन युवाओं के लिए प्रेरणा और परिश्रम का अद्भुत उदाहरण है। पंजाबी भाषा में, उनादा जीवन युवा वाली प्रेरणा ते परिश्रम दा प्रतीक है। चतुर्थम वाक्यम अस्ति, तस्य जीवनाधारेण निर्मितेन चलचित्रेण भाग मिल्खा भाग इत्यनेन युवभ्यः नूतना प्रेरणा प्रदत्ता। मिल्खा सिंह के जीवन पर बनी फिल्म भाग मिल्खा भाग ने युवाओं को नई प्रेरणा दी। पंजाबी भाषा में, उनादे जीवन ते बनी फिल्म भाग मिल्खा भाग नौजवानालय प्रेरणा है।
प्रिया श्रोतारः, भवद्भिः सह संवाद प्रवर्तनस्य प्रत्यावर्तन वेला सम्प्रति समापन्ना। इमं कार्यक्रमम् उपसंहर्तुम् अनुज्ञायताम् एष दिव्यानन्दः। संस्कृत साप्ताहिकीति कार्यक्रम विषये भवन्तः स्वकीयान् उद्गारान् प्रकाशयितुम् अर्हन्ति। एतदर्थम् अस्माकम् ईमेल संकेतः अस्ति nsdsanskrit@gmail.com। अग्रिमे सप्ताहे अस्मिन्नेव काले अभिनवम् एकम् अंकम् आदाय पुनः उपस्थास्यामहे। भवेत् तावत् मंगलम्।